ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परिभ्यः परपादुकाभ्य आचार्यसिद्धेश्वरपादुकाभ्यो नमो नमः श्रीगुरुपादुकाभ्य ऐहिंकार ह्रिंकार रहस्ययोक्ता श्रृंकार गूढ़ार्थमहाविभूत्या ओंकार मर्म प्रतिपादिनी व्या नमो नमः श्री गुरुपादुकाभ्याम् होत्राग्निहोत्राग्निहवीस्यहोत्री ओमादि सर्वाकृतिभासमानम् यद् ब्रह्म तद् बोधवितारिणीभ्या नमो नमः श्रीगुरुपादुकाभ्याम् कामादिसर्पव्रजगारुडाभ्याम् विवेकवैराग्यनिधिप्रदाभ्याम् बोधप्रदाभ्याम् द्रुतमोक्षदाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् अनंत संसार समुद्र तार नौकायिताभ्याम स्थिर भक्तिदाभ्याम जाद्याब्दि संशोषण वाडवाभ्याम नमो नमः श्री गुरुपादुकाभ्याम नमो नमः श्रीगुरुपादुकाभ्याम् ॐ शान्तिः 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 ॐ अथ श्रीगुरुगीता प्रारम्भ ॐ अस्य श्रीगुरुगीतास्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः नानाविधानि छन्दांसि श्रीगुरुपरमात्मा देवता हं बीजं सहशक्ति क्रोमकीलकं श्रीगुरुप्रसादसिद्ध्यर्थं जपे विनियोगः अथ ध्यानम् हंसाभ्यां परिवृत्तपत्रकमलेर् दिव्यैर्जगत्कारणैर्विश्वोत्कीर्णमनेकदेहनिलये स्वच्छन्दम् आत्मेच्छया त्यद्योतम् पदसाम्भवम् तु चरणम् दीपाङ्कुरग्राहिणम् प्रत्यक्षाक्षरविग्रहम् गुरुपदम् ध्यायेद्विभुम् शाश्वतम् मम चतुर्विध पुरुषार्थ सिद्ध्यते जपे विनियोग सूत उवाच कैलास शिखरे रम्ये भक्ति संधान नायकम् प्रणम्य पार्वती भक्त्या शंकरं पर्यप्रेच्छत श्रीदेव्य उवाच ॐ नमो देवदेवेश परात्परजगद्गुरो सदाशिव महादेव गुरुदीक्षां प्रदेहि मे केन मार्गेण भो स्वामिन् देहि ब्रह्ममयो भवेत् त्वं कृपां कुरु मे स्वामिन् नमामि चरणो तव ईश्वर उवाच मम रूपासि देवी त्वं त्वत्प्रीत्यर्थं वदाम्यहं लोकोपकारकः प्रश्नो न केनापि कृतः पुरा दुर्लभं त्रिषु लोकेषु तृष्णीष्णु वदाम्यहम् गुरुं विना ब्रह्म नान्यत् सत्यं सत्यं वरानने वेदशास्त्रपुराणानि इतिहासादिकानि च मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकं शेवशाक्तागमादीनि अन्यानि विविधानि च अपब्रह्मशङ्कराणीह जीवानां भ्रान्तचेतसां यज्ञोव्रतं तपोदानं जपस्तीर्थं तथैव च गुरुतत्त्वं विज्ञाय मूढास्ते चरते जना गुरुर्बुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः गूढविद्या जगन्माया देहे चाज्ञानशम्भवा उदययत्प्रकाशेन गुरुशब्देन कथ्यते सर्वपापविशुद्धात्मा श्रीगुरोपादसेवनात् देहि ब्रह्म भवेद्यस्मात् तत्कृपार्थं वदामिति गुरुपादाम्बुजं स्मृत्वा जलं शीर्षि धारयेत् सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नर शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसां गुरुपादोदकं सम्यक् संसारणवतारकम् अज्ञानमूलहरणं जन्मकर्मनिवारणं ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबे गुरोपादोदकं पीत्वा गुरुरुचिष्टभोजनं गुरुमूर्ते सदा ध्यानं गुरुमन्त्रं सदा जपेत् काशीक्षेत्रं तन्निवासो जाह्नवीचरणोदकं गुरुर्विश्वेश्वर साक्षात् तारकं ब्रह्म निश्चितं गुरोपादोदकं यत्तु गया असोशोक्षयो वटः तीर्थराजप्रयागश्च गुरुमूर्ते नमो नमः गुरुमूर्तिं स्मरे नित्यं गुरुनाम सदा जपेत् गुरोराज्ञां प्रकुर्वीत गुरो नन्न भावयेत् गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतेर्यथा स्वाश्रं स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् एतत् सर्वं परित्यज्य गुरो नन्न भावयेत् अनन्याश्चिन्तयन्तो मां सुलभं परमं पदं तस्मात् सर्वप्रयत्नेन गुरोराराधनं कुरु त्रैलोक्यस्फुटवक्तारो देवाध्यसुरपन्नगा गुरुवक्त्रस्थिता विद्या गुरुभक्त्या तु लभ्यते भुकारस्त्वन्धकारश्च ऋकारस्तेज उच्यते अज्ञानग्राशकं ब्रह्म गुरुरेव न संशय भुकारः प्रथमो वर्णो मायादिगुणभाषकः ऋकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभं हा हा हू हू गणेश्चैव गन्धर्वेश्च प्रपूज्यते ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरुः परम् आसनं शयनं वस्त्रं भूषणं वाहनादिकं साधकेन प्रदातव्यं गुरुसन्तोषकारकं गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् कर्मणा मनसा वाचा नित्यं दीर्घदण्डं नमस्कृत्य निर्लजो गुरुसन्निधो शरीरमिन्द्रियं प्राणान् सद्गुरुभ्यो निवेदयेत् आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् क्रमीकीटभस्मविष्ठा दुर्गन्धिमलमूत्रकं श्लेषं रक्तं त्वचा मांसं वचन्येन वरानने संसारवृक्षमारूढ पतन्तो नरकारणवे येन चैवोद्धृता सर्वे तस्मै श्रीगुरवे नमः गुरुर्ब्रह्मा गुरुर्विष्णोर्गुरुर्देवो महेश्वरः गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः हेतवे जगतामेव संसारणवसेतवे प्रभवे सर्वविद्यानां संभवे गुरवे नमः अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः यत् सत्येन जगत् सत्यं यत् प्रकाशेन भाति तत् यदानन्दे नन्दन्ति तस्मै श्रीगुरवे नमः यस्यास्तित्या सत्यमिदं यद्भाति भानुरूपता प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः येन चेतयते इदं चित्तं चेतयते नयं जाग्रत्स्वप्नसुसुप्त्यादि तस्मै श्रीगुरवे नमः यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदत सदेकरूपरूपाय तस्मै श्रीगुरवे नमः यस्यामतं तस्य मतं मतं यस्य न वेदस अनन्यभावभावाय तस्मै श्रीगुरवे नमः यस्य कारणरूपस्य कार्यरूपेण भाति यत् कार्यकारणरूपाय तस्मै श्रीगुरवे नमः नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता कार्यकारणता चैव तस्मै श्रीगुरवे नमः यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकं तारकं सर्वदा पद्भ्य श्रीगुरुं प्रणमाम्यहम् शिवे क्रुधे गुरुस्त्राता गुरो क्रुधे शिवो नहि तस्मात् सर्वप्रयतनेन श्रीगुरुं शरणं व्रजेत् वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरं श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् गुकारं च गुणातीतं रूकारं रूपवर्जितं गुणातीतस्वरूपं च यो ददात् स गुरो स्मृत अत्रिनेत्रः सर्वसाक्षी अचतुर्बाहुरच्युतः अचतुर्वदनो ब्रह्मा श्रीगुरु कथित प्रिय अयम् मायाञ्जलिर्बद्धो दया सागर वृद्धये यदनुग्रहतो जन्तुश्चित्र संसार मुक्तिभाक् श्रीगुरो परमं रूपं विवेकचक्षुषोऽमृतं मन्दभाग्यान् पश्यन्ति अन्धा सूर्योदयं यथा श्रीनाथ चरणद्वन्द्वं यस्यां दिशि तस्यै दिशे नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये तस्यै दिशे सततमञ्जलिरेष आर्ये प्रक्षिपयतो मुखरितो मधुपेर्बुधेश्च जाग्रति अत्र भगवान् गुरुचक्रवर्ती विश्वोदय प्रलय नाटक नित्य साक्षी श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धोगं बटुकत्रयं पदयुगं दूतिक्रमं मण्डलम् वीरान् द्वयश्च चतुष्कषष्टि नवकं वीरावल्ली पञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् अभ्यस्ते सकलैर्सुदीर्घमनिलैर्व्याधिर्पदैर्दुष्करे प्राणायामशतैर्नेर्ककरणैर् दुःखात्मकैर्दुर्जहे यस्मिन् भयोदिते विनशयति बलिवायुः स्वयं तत्क्षणात् प्राप्तुं तत्सहजं स्वभावमनिशं शिवध्वमेकं गुरुं स्वदेशिकस्यैव शरीरचिन्तनं भवेदनन्तस्य शिवस्य चिन्तनम् स्वदेशिकस्यैव च नाम कीर्तनं भवेदनन्तस्य शिवस्य कीर्तनं यत्पादरेणुकणिकापि संसारवारिधे सेतुबन्धायते नाथं देशिकं तमुपास्महे यस्मादनुग्रहं लब्ध्वा महद्ज्ञानमुत्सृजेत् तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये पादाम्बजं सर्वसंसार दावानलविनाशकं ब्रह्मरन्ध्रेशितां भोज मध्यस्थं चन्द्रमण्डले अखतादित्रिरेखाब्जे सहस्रदलमण्डले हंसपार्श्वत्रिकोणे च स्मरे तन्मध्यगं गुरुं सकलभुवनसृष्टि कल्पिताशेषपुष्टिर्निखिलनिगमदृष्टि सम्पदां व्यर्थदृष्टिः अवगुणपरिमाष्टिस्तत्पदार्थैकदृष्टिर्भवगुणपरमेष्टिर् मोक्षमार्गेकदृष्टिः सकलभुवनरङ्गस्थाप्नास्तम्भ्यष्टिः सकरुणरसवृष्टिस्तत्त्वमाला समष्टिः सकलसमयसृष्टिः सच्चिदानन्ददृष्टिर्निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः अग्निशुद्धसमं तात ज्वालापरिचकाधिया मन्त्रराजमिमं मन्ये अहर्निशं पातु मृत्तत तदेजति तन्नेजति तद्दूरे तत्समीपके तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यत अजोहं रजोहं च अनाधिनिधनं स्वयं अविकारश्चिदानन्द अणीयान्महतो महान् अपूर्वाणां परं नित्यं स्वयं ज्योतिर्निरामयं विरजं परमाकाशं द्रोमानन्दमव्ययं श्रुति प्रत्यक्षमेतिह मनुमानुश्चतुष्टयं यस्य चात्मतपो वेद देशिकं च सदा स्मरेत् मननं यद्भवं कार्यं तद्वदामि महामते साधु त्वं च मया दृष्ट्वा त्वयि तिष्ठति साम्प्रतम् अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितम् तस्मै श्रीगुरवे नमः सर्वश्रुतिशिरोरत्न विराजितपदाम्बुज वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयं य एव सर्वसम्प्राप्तिस्तस्मै श्रीगुरवे नमः चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनं नान्दबिन्दुकलातीतं तस्मै श्रीगुरवे नमः स्थावरं जङ्गमं चैव तथा चैव चराचरं व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषिता भुक्तिमुक्तिप्रदातायस्तस्मै श्रीगुरवे नमः अनेकजन्मसम्प्राप्त सर्वकर्मविदाहिने स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः न गुरोर्धिकं तत्त्वं न गुरोर्धिकं तप तत्त्वं ज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः मन्नाथ श्रीजगन्नाथो मद्गुरु श्रीजगद्गुरो ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ध्यानमूलं गुरोर्मूर्ति पूजामूलं मोक्षमूलं गुरुकृपा गुरोरादिर्नादिश्च गुरुः परं दैवतं गुरुः परतरं नास्ति तस्मै श्रीगुरवे नमः सप्तसागरपर्यन्त तीर्थसननादिकं फलं गुरोरङ्ग्रीपयो बिन्दु सहस्रांशेन दुर्लभम् हरोरुष्टे गुरुस्त्राता गुरोरुष्टेन कश्चन तस्मात् सर्वप्रियतनेन श्रीगुरुं शरणं व्रजेत् गुरोरेव जगत्सर्वं ब्रह्म विष्णु शिवात्मकं गुरोः परतरं नास्ति तस्मात् सम्पूजयेद् गुरुं ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तिता गुरोः परतरं नास्ति ध्येयो अशो गुरुमार्गिभिः यस्मात् परतरं नास्ति तत्तिवे श्रुतिः मनसा वचसा चैव नित्यम् आराधयेत् गुरु गुरुः कृपाप्रसादेन ब्रह्म विष्णु सदाशिवा समर्था प्रभवादोच केवलं गुरुसेवया देवकिन्नरगन्धर्वा पितरो यक्षचारणः मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् महाहङ्कारगर्वेण तपो विद्या संसार कुहरावर्ते घट यंत्रे यथा घट न मुक्ता देव गंधर्वा पितरो यक्ष किन्नरा ऋषय सर्वसिद्धाश्च गुरु सेवा पराङ्मुखा ध्यानं श्रृणु महादेवी सर्वानंद प्रदायकं सर्वसौख्यकरं नित्यं भुक्ति मुक्ति विधायकं श्रीमत्परं गुरुं स्मरामि श्रीमत्परं गुरुं वदामि श्रीमत्परं गुरुं नमामि श्रीमत्परं गुरुं भजामि ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्ति द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्षयं एकं नित्यं विमलमचलं सर्वधी साक्षीभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि नित्यं शुद्धं निराभासं निराकारं निरञ्जनं नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहं हृदं भुजे कर्णिकमध्यसंस्थे सिंहासने स्थितदिव्यमूर्ति ध्यायेद् गुरुं चन्द्रकलाप्रकाशं चित्पुस्तकाभीष्टवरं ददानं श्वेतांबरं श्वेतविलेपपुष्पं मुक्ताविभूषं मुदितं द्विनेत्रं वामाङ्कपीठस्थितदिव्यशक्तिं मन्दस्मितं सान्द्रकृपानिदानम् आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तं योगीन्द्रमीडयं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि यस्मिन् सृष्टिस्थिति ध्वंस निग्रानुग्रहात्मकं कृत्यं पञ्चविधं शश्वत् भाषते तं नमाम्यहं प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरु वराभयुतं शान्तं स्मरेतं नाम पूर्वकं न गुरोर्धिकं न गुरोर्धिकं न गुरोर्धिकं न गुरोर्धिकं शिवशासनतः 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 शिवशासनत इदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं मम शासनतो मम शासनतो मम शासनतो मम शासनत एवं विधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयं तत्सद्गुरु प्रसादेन मुक्तो अहमिति भावये गुरुदर्शित मार्गेण मनः शुद्धिं तु कारयेत् अनित्यं खण्ड्येत् सर्वं यत्किञ्चिदात्मगोचरं ज्ञेयं सर्वस्वरूपं च ज्ञानं च मन उच्यते ज्ञानं ज्ञेयसमं कुर्यान् नान्या पन्था द्वित्यक एवं श्रुत्वा महादेवी गुरुनिन्दं करोति स याति यावच्चन्द्रदिवाकरो यावत् कल्पान्तको देहस्तावद्देव गुरुं स्मरेत् गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् हुङ्कारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथञ्चन गुरोरग्रे न वक्तव्यम् असत्यं च कदाचन गुरुं त्वं कृत्यहुं प्रीत्य गुरुं निर्जित्य वादत अरण्ये निर्जले देशे स भवेद् ब्रह्म राक्षस मुनिभिपनगेर्वापि सुरेर्वाशापितो यदि कालमृत्यो भयाद्व्यापि गुरु रक्षति पार्वती अशक्ता हि सुराध्यश्च अशक्ता मुनियस्तथा गुरुशापेन ते शीघ्रं शयं शान्ति न संशय मन्त्रराजमिदं देवी गुरुरित्यक्षरद्वयं स्मृतिवेदार्थवाक्येन गुरुसाक्षात् परं पदं श्रुतिस्मृतिविज्ञाय केवलं देवे सन्यासिनः प्रोक्ता इतरे वेषधारिण नित्यं ब्रह्म निराकारं निर्गुणं बोधयेद् गुरु सर्वब्रह्म निराभासं दीपो दीपांतरं यथा गुरु कृपा प्रसादेन आत्मा रामं निरीक्षयेत् अनेन गुरु मार्गेण स्वात्मज्ञानं प्रवर्तते आब्रह्मस्तं पर्यन्तं परमात्मस्वरूपकं स्थावरं जंगमं चैव प्रणमामि जगन्मयं वन्देहं सचिदानन्दं वेदातीतं सदा नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितं परात्परतरं ध्येयं नित्यमानन्दकारकं हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभं स्फटिकप्रतिमारूपं दृश्यते दर्पणो यथा तथात्मनि चिदाकारं आनन्दं सोऽहमोत्तत अङ्गुष्ठमात्रपुरुषं ध्यायश्चिन्मयं हृदि तत्र स्फुरति भावोय शृणुं तं कथयाम्यहम् अगोचरं नामरूपविवर्जितं निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वती यथा गन्धस्वभावेन कर्पूरकुसुमादिषु शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्वतम् स्वयं तथा विदो भूत्वा स्थातव्यं यत्र कोत्रचित् कीटभ्रमरवत् तत्र ध्यानं भवति तादृशं गुरोर्ध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् पिण्डे पदे तथा रूपे मुक्तशो नात्र संशय श्रीपार्वत्योवाच पिण्डं किं तो महादेव पदं किं समुदाहृतं रूपातीतं च रूपं किं एतदाख्याहि शंकर श्रीमहादेव उवाच पिण्डं कुण्डलिनी शक्ति पदं हंसमुदाहृतं रूपं बिन्दुरिति गेयं रूपातीतं निरञ्जनं पिण्डे मुक्ता पदे मुक्ता रूपे मुक्ता वरानने रूपातीते तु ये मुक्तास् मुक्ता नात्र संशय स्वयं स्वर्मयो भूत्वा परं तत्त्वं विलोकयेत् परात्परतरं नान्यत् सर्वमेतन्निरालयं तस्यावलोकनं प्राप्य सर्वसङ्गविवर्जितः एकाकी निःस्पृह शान्तस्तिष्ठासीत् तत्प्रसादत लब्धं वाथ न लब्धं वा स्वल्पं वा बहुलं तथा निष्कामेनेव भोक्तव्यं सदा संतुष्ट चेतसा सर्वज्ञ पदमित्याहुर् देहि सर्वमयो बुधा सदानन्द सदा शान्तो रमते यत्र कोत्रचित् यत्रैव तिष्ठते सोऽपीश देशः पुण्यभाजनं मुक्तस्य लक्षणं देवी तवाग्रे कथितं मया उपदेशस्तथा देवी गुरुमार्गेण मुक्तिदः गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम् अनेन यद्भवेत् कार्यं तद्वदामि महामते लोकोपकारकं देवी लौकिकं तु न भावये लौकिकात् कर्मणो यान्ति ज्ञानहीना भवार्णवम् ज्ञानी तु भाव्येत् सर्वं कर्म निष्कर्म यत्कृतम् इदं तु भक्तिभावेन पठते शृणुते यदि लिखित्वा तत्प्रदातव्यं तत्सर्वं सफलं गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितं भवव्याधिविनाशार्थं स्वयमेव जपेत् सदा गुरुगीताक्षरेकं तु मन्त्रराजमिमं जपेत् अन्ये च विविधा मन्त्राः कलां न हरन्ति षोडशि अनन्तफलमाप्नोति गुरुगीता जपेन तु सर्वपापप्रशमनं सर्वदारिद्र्यनाशनं कालमृत्योभयहरं सर्वसङ्कटनाशनं यक्षराक्षसभूतानां चोरव्याघ्रभयापहं महाव्याधिहरं सर्वं विभूतिसिद्धिदं भवेत् अथवा मोहनं वश्यं स्वयमेव जपेत् सदा वस्त्रासने च दारिद्र्यं पाषाणे मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् कृष्णाजिने ज्ञानसिद्धिर्मोक्षशिरीर्व्याघ्रचर्मणि कुशासने ज्ञानसिद्धि सर्वसिद्धिस्तु कम्बले कुशीर्वा दुर्भया देवि आसने शुभ्रकम्बले उपविशय ततो देवि जपेदेकाग्रमानस ध्येयं शुक्लं च शान्त्यर्थं वश्यैरत्तासनं प्रिये अभिचारे कृष्णवर्णं पीतवर्णं धनागमे उत्तरे शान्तिकामस्तु वश्ये पूर्वमुखो जपेत् दक्षिणे मारणं प्रोक्तम् पश्चिमे च धनागम मोहनं सर्वभूतानां बन्धमोक्षकरं भवेत् देवराजप्रियकरं सर्वलोकावशं भवेत् सर्वेषां स्तम्भनकरं गुणानां च विवर्धनं दुष्कर्मनाशनं चैव सुकर्म सिद्धिदं भवेत् असिद्धं साध्येत् कार्यं नवग्रह भयापहं दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकं सर्वशान्तिकरं नित्यं तवन्द्यं अवेधव्यकरं स्त्रीणां सौभाग्यदायकं सदा आयुरारोग्येश्वर्य पुत्र पौत्र प्रवर्धनम् अकामत स्त्री विद्वा जपान् मोक्षमवाप्नुयात् अवेधव्यं सकामातु लभते चान्य जन्मनि सर्वदुःख भयं विघ्नं नाशी चापहारकं सर्वबाधा प्रशमनं धर्मार्थ काम मोक्षदं यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं कामितस्य कामधेनु कल्पना कल्पपादप चिन्तामणिश्चिन्तितस्य सर्वमङ्गलकारकम् मोक्षहेतुर्जपे नित्यम् मोक्षश्रियमवाप्नुयात् भोगकामो जपे द्यो वै तस्य कामफलप्रदम् जपेक्षाक्तश्च सौरश्च गणपत्यश्च वैष्णव सेवश्च सिद्धिदं देवी सत्यं सत्यं न संशय अथ काम्य जपे स्थानं कथयामि सागरे वासरितीरे अथवा हरिहरालये शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे वटे च धात्री मूले वा मठे वृन्दावने तथा पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा निर्वेदनेन मौनेन जपमेतं समाचरेत् श्मशाने भयभूमौ तु वटमूलान्तिके तथा सिद्ध्यन्ति धोतरे मूले आम्रवृक्षस्य सन्निधो गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा शुभकर्माणि सर्वाणि दीक्षाव्रततपांसि च संसारमलनाशार्थं भवपाशनिवृत्तये गुरुगीताम्भसि स्नानं तत्त्वज्ञ कुरुते सदा स एव च गुरु साक्षात् सदा सद्ब्रह्मवित्तमः तस्य स्थानानि सर्वाणि पवित्राणि न संशय सर्वशुद्ध पवित्रोऽसौ स्वभावध्यत्र तिष्ठति तत्र देवगणः सर्वे क्षेत्रे पीठे वसन्ति आसनस्थशयानो वा गच्छन्स्तिष्ठन् वदन्नपि अश्वारूढो गजारूढ सुप्तो वा जाग्रतोऽपि वा शुचिस्माश्च सदा ज्ञानी गुरुगीता तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतं भिन्ने कुम्भे यथा काशस्तथात्मा परमात्मनि तथैव ज्ञानी जीवात्मा परमात्मनि लीयते एकेन रमते ज्ञानी यत्र तत्र दिवानिशम् एवं विदो महामुक्तः सर्वदा वर्तते बुध तस्य सर्वप्रयत्नेन भावभक्तिं करोति य सर्वसन्देहरहितो मुक्तो भवति पार्वती भुक्ति मुक्ति द्वयं तस्य जीवाग्रे च सरस्वती अनेन प्राणिनः सर्वे गुरुगीता जपेन तु सर्वसिद्धिं प्राप्नुवन्ति भुक्ति मुक्तिं न संशय सत्यं सत्यं पुनः सत्यं धर्म्यं साङ्ख्यं मयोदितं गुरुगीता समं नास्ति सत्यं सत्यं वरानने एको देव एक धर्म एक निष्ठा परन्तप गुरो परतरं नान्य नास्ति तत्त्वं गुरो परम् माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा धन्य च वसुधा गुरु भक्ति सुदुर्लभा शरीरमिन्द्रियं प्राणाश्च अर्थ स्वजन बांधवा माता पिता कुलं देवी गुरुरेव न संशय आकल्प जन्मना कोट्या जप व्रत तप क्रिया तत्सर्वं सफलं देवी गुरु संतोषकारक विद्या तपो बलेनेव मंदभाग्याश्च ये नरा गुरु सेवां न कुर्वन्ति सत्यं सत्यं वरानने ब्रह्म विष्णु महेशाश्च देवऋषि पितृकिन्नरा सिद्धचारण यक्षाश्च अनिये अपि मुनयो जना गुरुभाव परम तीर्थ अन्य तीर्थं निरर्थकं सर्वतीर्थाश्रयं पादांगुष्ठं च वर्तते जपेन जयमाप्नोति चानन्त फलमाप्नुयात् हीन कर्म त्यजन सर्वं स्थानानि चाधमानि च जपं हीनासनं कुर्वन् हीन कर्म फलप्रदं गुरु गीतां प्रयाणे वा संग्रामे रिपुसंकटे जपं जयमवाप्नोति मरणे मुक्तिदायकं सर्वकर्म च सर्वत्र गुरु पुत्रस्य सिद्ध्यति इदं रहस्यं नोवाच्यं तवाग्रे कथितं मया सुगोप्यं च प्रियतनेन मम त्वं च प्रियात्विति स्वामी मुख्य गणेशादि विष्णवादीनां च पार्वती मनसापि न वक्तव्य सत्यं सत्यं अतीव पक्वचित्ताय श्रद्धा भक्तियुताय च प्रवक्तव्यमिदं देवी ममात्मासि सदा प्रिये अभक्ते वंचके धूर्ते पाखंडे नास्तिके नरे मनसापि न वक्तव्या गुरु गीता कदाचन संसार सागर समुद्रणेकमन्त्रं ब्रह्मादि देव मुनि पूजित सिद्ध मन्त्रं दारिद्र्य दुख भव रोग विनाश मन्त्रं वंदे महाभयहरं श्री गुरुराज मन्त्रं वंदे महाभयहरं श्री गुरुराज मन्त्रं इति श्री स्कंद पुराणे उत्तरखंडे ईश्वर पार्वती संवादे गुरु गीता संपूर्ण श्री गुरुदेव चरणार्पणम्।